इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी जर्मनी देशीयः शासनाध्यक्षः ओलाफ श्कोल्जः इत्येषः च ह्यः नवदिल्ल्यां सप्तमस्य अन्तःसर्वकारीय परामर्शस्य आईजीसी इत्येतस्य सम्मेलनस्य सहाध्यक्षतां कृतवन्तौ। आईजीसी इति एका सम्पूर्ण सर्वकारीय संरचना अस्ति यस्याः अन्तर्गतम् उभयोः देशयोः मन्त्रिणः स्वलक्षितेषु कर्तव्ययुतक्षेत्रेषु चर्चां कुर्वन्ति इति, अपि च विचारविमर्शानां परिणामाः प्रधानमन्त्रिणे शासनाध्यक्षाय च प्रस्तुवन्ति। भारत जर्मनी देशयोः मध्ये ह्यः द्विपक्षीय सम्बन्धान् वर्धयितुं हरित हाइड्रोजन नवीन प्रौद्योगिक्यादि बहुविध सन्धिपत्राणि च हस्ताक्षरितानि। प्रतिनिधिमण्डलस्तरीयस्य वार्तायां नवदिल्ल्यां प्रधानमन्त्री नरेन्द्रमोदी जर्मन शासनाध्यक्षः ओलाफ श्कोल्जः इत्येतयोः उपस्थितौ सन्धिपत्राणाम् आदान प्रदानं जातम्। भारत जर्मनी देशयोः मध्ये गोपनीय सूचनायाः आदान प्रदानस्य परस्पर संरक्षणस्य च विषये सहमतिः अपि अभवत्। उभौ राष्ट्रौ नवीनतायाः प्रौद्योगिक्याः च सह भारत जर्मन हरित हाइड्रोजन रूपरेखायाः कृते अपि स्वप्रतिबद्धतां प्रकटितवन्तौ। अपराध विषयेषु परस्परं विधि सहायतायाः सन्धिपत्रे तौ हस्ताक्षरं कृतवन्तौ। भारत जर्मनी देशयोः मध्ये कौशलविकासस्य व्यावसायिक शिक्षा प्रशिक्षणस्य च क्षेत्रे सहकार्यस्य विषये अपि ज्ञापनपत्रे हस्ताक्षरं जातम्। वार्ताहरान् सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी यूक्रेन पश्चिम एशिया देशयोः मध्ये प्रचल्यमाणे संघर्षे पुनर्शान्तिस्थापनाय भारतस्य प्रतिबद्धतां पुनः उक्तवान्। सः अवदत् यत् भारतं सदैव वदति यत् युद्धेन समस्यानां निवारणं कर्तुं न शक्यते। श्रीमोदी अवदत् यत् अद्य भारतं विविधीकरणस्य संकटनिवारणस्य च बृहत्तमे केन्द्रं जायमानम् अस्तीति। सः इदमपि अवदत् यत् भारतप्रशान्तक्षेत्रं विश्वस्य भविष्यस्य कृते अतीव महत्वपूर्णम् अस्तीति। जर्मन व्यापारस्य 18वें एशिया प्रशान्त सम्मेलने निजभाषणसमये जर्मनदेशीयः शासनाध्यक्षः ओलाफ श्कोल्जः इत्येषौ प्रोक्तवान् यत् भारतं विश्वस्य बृहत्तमं लोकतन्त्रं द्रुतगत्या वर्धमाना प्रमुखा अर्थव्यवस्थापि अस्ति। अनेन भारत जर्मनी देशयोः मध्ये समन्वयं वर्धयितुम् अपि बलं दत्तम्। भारत इटली देशौ सुरक्षितं सरलं च साइबर क्षेत्रं संवर्धयितुं स्वसंस्थानयोः मध्ये सहकार्यं वर्धयितुं सहमतौ जातौ। ह्यः नवदिल्ल्याम् उद्घाटन साइबर संवादस्य समये उभौ पक्षौ साइबर समाह्वानानां परिदृश्यस्य राष्ट्रिय साइबर रणनीतीनां च विषये विचाराणाम् आदान प्रदानं कृतवन्तौ। आगामिनं दीपावली पर्व छठ पूजोत्सवं च अभिलक्ष्य यात्रिसम्मर्दं दूरीकर्तुम् अद्यारभ्य आगामिमासस्य सप्तमं दिनांकपर्यन्तं रेलमन्त्रालयेन विशिष्ट रेलयानानां 95%-अधिकैकशतं यावत् अतिरिक्त प्रचालनं क्रियते। एतेषां रेलयानानां परिचालनं मुख्यतया राष्ट्रिय राजधान्याः नई दिल्ली आनंद विहार रेल स्थात्राभ्याम देशस्य पूर्वीय क्षेत्राणां कृते क्रियते। क्रिकेट प्रतिस्पर्धायां न्यूजीलैंड दलेन ह्यः पुणे नगरे भारतं विरुध्य द्वितीय निकष स्पर्धायाः द्वितीये पर्याये पंच क्रीडकानां हानि पुरस्सरं 98%-अधिकैकशतं धावनांकाः निर्मिताः। अतिथि दलं सांप्रतं 100%-300% धावनांकैः अग्रत्वं भजते इति वार्ताः।